एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रस्तोत्री रत्नावली शर्मा। संसदि प्रस्तुतानाम् अध्यादेशानाम् तत्सम्बद्धानाम् अस्वीकृतेः प्रस्तावानाम् च विषयेष् प्रतिनिधिसभायाः नियमावल्याः अनुसारेण अग्रे वर्धितुम् प्रमुख राजनीतिक दलेष् सहमतिर्धृता अस्ति। सभामुखेन देवराज घिमिरे विधेन ह्य आहुते उपवेशे प्रमुख राजनीतिक दलानाम् सचेतकपदीयैः नियमावल्याः अनुसारेण अध्यादेशमाधृत्य विविधान् प्रस्तावान् अग्रे सारयितुम् सहमतिर्धृता अस्ति। उपवेशानन्तरम् संचारकर्मिभिः सह नेकपा एमाले दलस्य प्रमुख सचेतकपदीयः महेश बर्तौला अद्य उपवेश्यमानस्य संसदः उपवेशस्य कार्यसूचिर्विषये विमृष्टमस्ति। अद्यतनोपवेशे प्रमुख प्रतिपक्षिदलानाम् नेतृभिः सम्बोधनम् करिष्यते चेति कार्यसूचेः विषये सहमतिर्धृता अस्ति इति अज्ञापयत्। उपवेशानन्तरम् नेपाली कांग्रेस दलस्य प्रमुख सचेतकपदीयः श्यामकुमार घिमिरे सर्वेषाम् अध्यादेशानाम् विषये विमृष्टम् अस्ति। एकस्य अध्यादेशस्य विषये समागतानाम् अस्वीकार प्रस्तावानाम् एकस्मिन्नेव समये निर्णये प्रापणाय कार्यतालिका निर्धारिता अस्ति इति असूचयत्। सभामुखेन देवराज घिमिरे विधेन अस्यैव माघमासस्य अष्टादशे दिवसे प्रतिनिधिसभायाः उपवेशे प्रस्तुतान् अध्यादेशान् आधृत्य बहूनाम् अस्वीकारस्य सूचनानाम् पञ्जीकरणानन्तरम् राजनीतिकदलानाम् सहमतेः अनुसारेण अग्रे वर्धितुम् प्रमुख सचेतकपदीयैः सह विमृष्टमासीत्। उपवेशे विधि न्याय संसदीय विषय मन्त्रिणा अजय कुमार चौरसिया विधेन सहितानाम् नेपाली कांग्रेस नेकपा एमाले नेकपा माओवादी केन्द्र प्रभृतिनाम् संसदीय प्रतिनिधित्वम् कुर्वताम् प्रमुख राजनीतिक दलानाम् प्रमुख सचेतक पदीयानाम् सहभागिता आसीत्। प्रधानमन्त्री केपी शर्मा ओली कीर्तिपुरवर्तिनी क्रिकेट रंगशालायाः स्तरोन्नतेः कार्यम् तीव्रगत्या अग्रे वर्धयितुम् नगरीय विकास मन्त्रालयम् निर्दिष्टवान् अस्ति। सिंहप्रासादवर्तिनी प्रधानमन्त्री मन्त्री परिषदः कार्यालये मन्त्रालयस्य कार्यस्य विषयम् जिज्ञासमानः प्रधानमन्त्री ओली कीर्तिपुर रंगशालाम् अन्तर्राष्ट्रिय स्तरीयाम् विधातुम् निरदिशत्। तदवसरे मन्त्रालयेन रंगशाला निर्माणस्य सन्दर्भे अधुनावधि जातायाः प्रगतेर्विषये प्रधानमन्त्री विज्ञापितः आसीत्। अत्रान्तरे प्रधानमन्त्रिणा ओलिना राष्ट्रिय गौरवयुतायाः आयोजनायाः रूपेण विद्यमानायाः काष्ठमण्डप तराई मधेस द्रुतमार्गायोजनायाः अधुनावधि विहितायाः प्रगतेः एतत् सम्बद्ध समस्यानां समाधानस्य च विषयेष् जिज्ञासितमस्ति। प्रधानमन्त्री मन्त्री परिषदः कार्यालये ह्य नेपाली सेनायाः पक्षतः प्रधानमन्त्रिणे आयोजनायाः प्रारम्भस्थले खोकनास्थाने भूमि अधिग्रहणस्य दीर्घकालात् विद्यमानायाः समस्यायाः आयोजनाक्षेत्रे विद्यमानानां वृक्षाणां छेदनस्य विषयेष् च ज्ञापितम् आसीत्। दोला सेतोः निर्माणकार्ये संलग्नौ द्वौ श्रमिकौ सुर्खेत जनपदस्य भेरी नद्याम् विलुप्तौ स्तः। ह्य बराहताल ग्रामपालिकायाः चतुर्थवडा क्षेत्रस्य कुटास्थानस्य भेरी नद्याः उपरि निर्माणाधीनस्य दोला सेतोः निर्माणकार्ये संलग्नौ द्वौ श्रमिकौ भेरी नद्याम् विलुप्तौ स्तः इति अस्माकं प्रतिनिधिः आकाश तारा वैकः ज्ञापयति। विलुप्तयोः जनयोः रुकुम पूर्व जनपदस्य सिस्ने ग्रामपालिकायाः द्वितीय वडा क्षेत्रस्य चतुर्विंशति वर्षीयः अनिल घर्ती अष्टादश वर्षीयः अर्जुन झात्री मगरश्च वर्तेते। चितवन जनपद न्यायालयेन रासोपा दलस्य सभापतिः रवि लामिछाने न्यायिक नियन्त्रणे प्रेषितो वर्तते। लामिछाने विधस्य विरुद्धस्य सहारा बचत सहकारी संस्थायाः वित्तस्य अपचलनस्य विषये कारावास सम्बद्ध न्यायिक विमर्शनस्य असमाप्तेः पश्चात् जनपद न्यायालयस्य न्यायाधीशस्य दयाराम ढकालस्य न्यायपीठेन सभापतिः लामिछाने न्यायिक नियन्त्रणे प्रेषितो वर्तते। अत्रान्तरे रासुपा दलस्य सभापतिना रवि लामिछाने विधेन सहितानां जनानां विरुद्धे संघटितापराधे सम्पत् शुद्धिकरणस्य च विषये न्यायिक प्रकरणस्य अचालनाय चितवन जनपद सर्व कार्याधिवक्तृ कार्यालयेन पञ्जीकारितम् अभियोग पत्रम् अध्येतुम् अनुसन्धान समितिः संघटिता अस्ति। चितवन सर्वकारीयाधिवक्तृ कार्यालयस्य अभियोगोऽसौ त्रुटिपूर्णो वर्तते इत्युल्लिख्य महान्यायाधिवक्तृ कार्यालयेन विषयममुम् अध्येतुम् चतुस्सदस्यीय अनुसन्धान समितिः संघटिता वर्तते। निर्वाचनायोगेन संविधान संशोधनस्य माध्यमेन निर्वाचन प्रणाल्याः संशोधनम् उपयुक्तं भवतीति ज्ञापितं वर्तते। राष्ट्रियसभायाः संघीयता सबलीकरण राष्ट्रिय सम्बद्धता समितेः ह्यस्तनोपवेशे प्रमुख निर्वाचनायुक्तः दिनेश कुमार थपलिया निर्वाचनं कीदृशं भवतीति राजनीतिको विषयो वर्तते, संविधानस्य संशोधनेन एव निर्वाचन प्रणाल्याः परिमार्जनं सम्भवतीति च हेतुः बृहदध्ययनं विधाय सर्वेषां सहमत्या निर्वाचन प्रणाल्याः संशोधनम् उपयुक्तं भवतीति समस्पष्टयत्। उपवेशे प्रमुख निर्वाचनायुक्तः थपलिया राजनीतिक दल सम्बद्धादि नियमे निर्वाचन व्यवस्थापनाधिनियमे निर्वाचनायोगाधिनियमे च सुधारं कृत्वा विद्यमानायाः निर्वाचन प्रणाल्याः सुदृढीकरणं निर्वाचन प्रक्रियायां सुधारश्च विधातुं शक्यते इति उदैरयत्। उपवेशे सांसदः वैद्युत निर्वाचन प्रणालीम् अवलम्बयितुं महिलानां प्रतिनिधित्वं अवर्धयितुं निर्वाचन प्रणाल्याः दृढतया क्रियान्वयितुं च परामृष्टवन्तः। स्वास्थ्य जनसंख्या मन्त्रालयेन अर्बुद रोगस्य नियन्त्रणाय मादक पदार्थानां अग्रभागे पृष्ठे च अनिवार्यतया सावधानतामूलकस्य सन्देशस्य लेखनस्य निर्देशिका क्रियान्विता वर्तते इति समाचारः।